ब्रह्मं ब्राह्मणो ब्रह्मवर्चसि जायतामास्मिन् राष्ट्रे राजन्यति सव्यः शूरो महारथो जायताम् दोर्ध्रीधेनुर्वोढा नट्वा नाशुः सत्यः पुरन्धर्योषा जिष्णो रथे
प्रचोदयात् युवा गुहि सचीनाय युवा गो स्मदीना भूया बाबा जदाम्ना त्वमग्न पुरुषंसाय वाघते यद्रेग्नः परमं मनोषि तत् आर्द्रस्य चिप्रपातिरुच्यसे पिता प्रपाकं शास्य प्रदिशो विदुष्टरः ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः यस्त्वभ्यन्दशाद्यो मा ते शिक्षात् तस्मै चिकित्वान्द्रगिन्दयस्व भद्रं कर्णेभिशृणुयामदेवा भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुमांसस्तनोभिर्व्यशेम एव हि तय्यदायुः तम् पृच्छता स जगामास वेद स चिकित्वा ईयते सान्वीयते तस्मिन् सन्ति प्रशिषस्तस्मिन् निष्ठयाः स वाचस्य शवसः शुष्मिणस्पतिः इन्द्रश्रेष्ठा निद्रवीणानि देहि चित्तिन्दक्षस्य सुभगत्वमस्मे कोशम् रयीणामरिष्टिम् तनूनाम् स्वात्मानम् वाचस्सुदिनत्वमह्ना हेतावो अश्म्युद्याताय जत्राः अतक्षन्धाय भो नव्याशेषम् शवस्य भो वाजम् जगानाः सत्यर्नरथ्यो अहधीतिमश्याः जन्मन् जन्मन्निहितो जातवेदाः विश्वामित्रेभिरिध्यते अजस्रः तस्य भयम् सुमतौ यज्ञियस्य अपि भद्रे सौ मनसे स्याः ऋतस्य इषुरुधः सन्ति पूर्वीः ऋतस्य भीतिर्वृजिनानि हन्ति ऋतस्य श्लोकोपधिरातर्द कर्णा बुधा न शुचमानहायोः यो देवो देवतमो जायमानः भिर्महद्भिश्च सुष्मैः तथा नो वज्रम् बाह्वोरुषन्तम् यामनेन रेजयत् प्रभुम ज्यायाम् समस्य यतुनस्य केतुनर्षिस्वरम् च रधियासु नामात् यादृष्मिन्धायितमापस्य या विदध्य उस्वयम् वहाथेसो अरङ्करत् अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् दधद्रयिम् महिपोषम्